बुद्धिर्बलं यशो धैर्यं निर्भयत्वं
आरोगता
अजाड्यं वाक्पटुत्वं च हनुमत्स्मरणाद् भवेत्।